इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः। पश्चिम एशियायां स्थायि शान्ति सन्धये अमेरिका ईरानयोः मध्ये वार्ता जायते। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तं यत् शरणार्थिनः पूर्ण संवैधानिक अधिकाराः प्राप्स्यन्ति, अवैध नागरिकाः बहिः निष्कासयिष्यन्ति। राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च समाज सुधारक महात्मा ज्योतिबा फुले जयन्त्यां श्रद्धाञ्जलिः समर्पिताः। दिल्ल्यां पञ्जीकृत 30 लक्ष रूप्यकात्मक विद्युत कारयानानि 30 उत्तर 2000 वर्षं यावत् मार्गकर पञ्जीकरण शुल्कं निःशुल्कं जातम्। भारते डिजिटल देय प्रक्रियायाः 10 वर्षाणि प्रपूरितानि। अपि च आयुष शेट्टी एशिया बैडमिंटन स्पर्धायाः निर्णायक द्वन्द्वे प्रविष्टाः। अथ वार्ताः विस्तरेण। पश्चिम एशियायां स्थायि शान्त्यर्थम् अद्य पाकिस्तानीय राजधान्याम् इस्लामाबादे अमेरिका ईरानयोः मध्ये संवादे प्रचलति। अमेरिकायाः उपराष्ट्रपतेः जेडी वेन्स वर्धस्य नेतृत्वे अमेरिकी दलमेकम् इस्लामाबादे एव स्थितमस्ति। भारतदेशे अमेरिकी राजदूतेन सर्जियो गोडवर्येण प्रोक्तं यत् अमेरिका देशस्य ऊर्जा मन्त्रिणः क्रिस राइट इत्येतस्य वार्तालापं विदेश सचिवेन विक्रम मिसरी महाभागेन साकं सफलं जातम्। उपवेशनमिदं शान्ति विधेयकः भारते पारितकरणदिशिम् आलक्ष्य सम्पन्नम्। विधेयकस्य उद्देश्यं भारते परमाणूर्जा संरचनायाः आधुनिकीकरणं, सुरक्षा मानकानां सन्धारणं, अन्ताराष्ट्रिय सहयोगितायाः अवसराणि सृजनमस्ति। श्रीगौरेण प्रोक्तं यत् अमेरिका देशः भारतेन साकं असैन्य परमाणूर्जां समेत्य ऊर्जा सुरक्षायाः अन्येषु क्षेत्रेषु अपि सहयोग विवर्धयितुं समीहते। विदेश सचिवं विक्रम मिसरी श्वः प्रभृति 3-दिवसीय यात्रायै फ्रांस जर्मनी देशौ प्रति गच्छति। तत्रासौ फ्रांस देशीय विदेश मन्त्रालयस्य महासचिवेन मार्टिन क्रियन्सेन समं भारत फ्रांस विदेश कार्यालये ईरान देशस्य पक्षतः संसदीय अध्यक्षः मोहम्मद बाघेरः गालिबाफ प्रतिनिधित्वं करोति। असौ सामाजिक माध्यमेन उक्तवान् यत् उभयोः पक्षयोः मध्ये स्वीकृताः केचन उपायाः अद्यापि न कार्यान्विताः सन्ति, येषु लेबनान देशे युद्धविरामः, तया ईरानस्य अवरुद्ध सम्पत्तीनां विमोचनं समाविष्टमस्ति। एषा वार्ता मुख्यतया ईरानस्य परमाणु कार्यक्रमः, बैलिस्टिक प्रक्षेपास्त्र विकासः तथा होर्मुज संकट मार्गम इत्यादिषु विषयेषु केन्द्रिता भविष्यति। प्रधानमन्त्री वरिष्ठ भाजपा नेता नरेन्द्र मोदी अद्य उक्तवान् यत् शरणार्थिनः पूर्णान् संवैधानिक अधिकारान् प्राप्स्यन्ति, किन्तु अवैध प्रवेशकाः निष्कासिताः भविष्यन्ति। पश्चिम बंगालस्य कटवा नगरे आयोजितायां जनसभायां सम्बोधयन् श्रीमोदी उक्तवान् यत् राज्ये भाजपा प्रशासनस्य संरचनानन्तरं नागरिकता संशोधन अधिनियमस्य अन्तर्गतं नागरिकता प्रदान प्रक्रिया सर्वेषां योग्य अभ्यर्थिनां कृते शीघ्रं क्रियते। तृणमूल कांग्रेस पक्षस्य आलोचनां कुर्वन् श्रीमोदी उक्तवान् यत् तस्य 15-वर्षीय शासनं बंगाल नागरिकानां मध्ये केवलं भयमुत्पन्नम्।
मोदी की गारंटी टीएमसी की निर्मम सरकार के भय राज को भरोसे में बदलने की है, और ये गारंटी पूरी कैसे होगी इसका पूरा खाका बीजेपी के घोषणा पत्र में है। बीजेपी भ्रष्टाचार और कानून व्यवस्था को लेकर व्हाइट पेपर जारी करेगी।
केन्द्रीय गृहमन्त्री वरिष्ठ भाजपा नेता अमित शाह अपि पश्चिम बंगे जनसभां सम्बोधितवान्। असौ प्रोक्तवान् यत् तृणमूल कांग्रेस पक्षस्य सिंडिकेट राज इत्यनेन पश्चिम राज्यस्य शासनं नष्टम्। ममता बेनर्जी वर्या अपि भारतीय जनता पक्षस्य आलोचनां कृतवती। भारतदेशः समाज सुधारकं तथा कार्यकर्तारं महात्मानं ज्योतिबा फुले इत्यस्य जयन्त्यवसरे श्रद्धांजलिं अर्पयति। असौ सप्तविंशत्युत्तर अष्टादशतमे वर्षे अस्मिन्नेव दिवसे जन्म लब्धवान्। महात्मा फुले स्वपत्नी सावित्रीबाई फुले सह स्त्रीशिक्षायाः सशक्तिकरणस्य समर्थनं कृतवान्। तया च जातिव्यवस्थायाः अस्पृश्यतायाः च उन्मूलनार्थं संघर्षं कृतवान्। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी, गृहमन्त्री अमित शाहः, लोकसभा अध्यक्षः ओम बिरला च संसदि प्रेरणास्थले महात्मने ज्योतिबा फुले इत्यस्मै द्विशततम जयन्त्यवसरे पुष्पाञ्जलिः समर्पितवन्तः। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। दिल्ली सर्वकारेण प्रवर्तमान त्रिंशदुत्तर द्विसहस्रतम अवधेः कृते विद्युत वाहन नीतेः प्रारूपः प्रकाशितः। अस्याः नीत्याः उद्देश्यः स्वच्छ परिवहनस्य प्रोत्साहनम् इति। त्रिंशदलक्ष रूप्यकात् न्यूनमूल्यस्य सर्वेषां विद्युत मानानां कृते मार्गकरस्य पंजीकरण शुल्कस्य च शत प्रतिशत मुक्तिः प्रदास्यते। त्रिंशदुत्तर द्विसहस्रतमे वर्षे मार्च अन्तिमं दिवसं यावत् मान्या भविष्यति। अस्याः योजनायाः अन्तर्गतं विद्युत यानानां प्रोत्साहनार्थं अधिक नवशत उत्तर त्रिसहस्राधिक कोटि रूप्यकाणि विनियोजितानि सन्ति। इसरो इति भारतीय अन्तरिक्ष अनुसन्धान संस्था इत्यनेन गगनयान अभियानस्य कृते द्वितीयः समन्वित वायुपत्तन परीक्षणः आन्ध्रप्रदेशस्य श्रीहरिकोटायां सफलतया सम्पन्नः। एषा प्रणाली मानव उड्डयनकाले अन्तरिक्षयात्रिणां यत्र उपवेशनं भवति तस्य क्रू मॉड्यूलस्य सुरक्षित उद्धारं सुनिश्चेतुम् अत्यावश्यकम् अस्ति। केन्द्रीय मन्त्री जितेन्द्र सिंहः अस्य परीक्षणस्य सफल सम्पादनाय इसरो संस्थाम् अभिनन्दितवान्। भारतस्य प्रथमं मानव अन्तरिक्ष उड्डयनम् अग्रिमे वर्षे श्रीहरिकोटायां प्रक्षेपितं भविष्यति। त्रिपुरा निर्वाचनेषु जनजातीय क्षेत्र स्वायत्त जनपद परिषदः TTAADC इति निर्वाचनस्य मतदानं श्वः भविष्यति। मतदानं प्रातः सप्तवादनतः सायं चतुर्वादनपर्यन्तं भविष्यति। निर्वाचनं सप्तपञ्चाशदुत्तर द्विशत अधिक एकसहस्र मतदानकेन्द्रेषु अष्टाविंशति आसनानां कृते भविष्यति। राज्य निर्वाचन आयुक्तः अनुराग सेनः अवदत् यत् स्वच्छ निष्पक्ष शान्तिपूर्ण निर्वाचनस्य सुनिश्चित्यर्थं सर्वाः आवश्यकाः उपायाः उपकल्पिताः। सीबीआई इति केन्द्रीय अन्वीक्षण अभिकरणेन इच्छा प्रकटिता यत् आरोपी साहिल चौहानः थाईलैंड देशात् सफलतया प्रत्यानीतः। आपराधिक प्रकरणेषु साहिलः हत्या, हत्याप्रयासः, अवैध शस्त्रप्रयोगः वांछितः आसीत्। सीबीआई अवदत् यत् साहिलः हरियाणा पंजाब चण्डीगढ़ राज्येषु कार्यरतस्य भुप्पी राणा इति संघटनस्य प्रमुख सदस्यो वर्तते। आयुष शेट्टी बैडमिंटन एशिया चैंपियनशिप इति स्पर्धायाः निर्णायक चक्रे प्रविष्टः इति वार्ताः।